चित्रं चतुस्त्रिंशत् रोगाणि ईश्वरस्य जनानां किं कुर्वन्ति योजनं केन रोगग्रस्तः सः प्रप्रथमम् ईश्वरस्य प्रार्थनं कुर्वन्ति स्म च ईश्वरस्य विश्वासं कुर्वन्तः सः त्वं कुर्वन्तः तत् सत्यं यदार्थम् ईश्वराणाम् एकः रोगिणां स्वस्थतावरं ददा शक्यते अपि च सः इच्छन्ति ईश्वरं वयमेषु प्रेमः कुर्वन्ति च युष्माकं जीवितेषु सित्वं एका एकेषु वचनं तत् नियन्त्रणम् अस्ति यूषस्य वयमेषु आसीत् सा इदम् आगच्छति युष्माकं शान्ति ददा कार्येषु युष्माकं सहायार्थं च यूयमेषु रोगाणां समयम्।